सर्वेषां स्वागतं। प्रार्थनया वर्गम् आरम्भं कुर्मः। अस्तु भगिनी, आरम्भं करोतु।
आं भगिनि। शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुत्भुजं प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये। सरस्वती नमस्तुभ्यं वरदे कामरूपिणी। विद्यारम्भं करिष्यामि, सिद्धिर्भवतु मे सदा। गुरुर्ब्रह्मा गुरुर्विष्णु गुरुर्देवो महेश्वरः, गुरुस्साक्षात् परं ब्रह्म, तस्मै श्रीगुरवे नमः।
ॐ सहनावतु,
सहनौ भुनक्तु, सह वीर्यं करवावहै, तेजस्विनावधीतमस्तु मा विद्विषावहैः। शान्ति शान्ति शान्तिः। श्रीगुरुभ्यो नमः।
धन्यवादः भगिनि।
नमस्ते भगिनि।
नमस्ते भगिनि। कृष्णो रक्षतु नः जगत्त्रयगुरुः, कृष्णं नमस्याम्यहं। कृष्णेनामरशत्रवो विनिहताः, कृष्णाय तुभ्यं नमः। कृष्णात् एव समुत्थितं जगदिदं, कृष्णस्य दासोऽस्म्यहं। कृष्णे रक्ति क्षम्यताम्, कृष्णे तिष्ठति सर्वमेततखिलं, हे कृष्ण रक्षस्व माम्। पुनरेकवारं। कृष्णो रक्षतु नः जगत्त्रय गुरुः, कृष्णं नमस्याम्यहं। कृष्णेन अमरशत्रवः विनिहताः, कृष्णाय तुभ्यं नमः। कृष्णादेव समुदितं जगतिदं, कृष्णस्य दास्योऽस्म्यहं। कृष्णे तिष्ठति सर्वमेततखिलं, हे कृष्ण रक्षस्व मा। अस्तु, सुभाषितं प्रति गच्छामः। सुभाषितम् एवम् अस्ति, षड्दोषाः पुरुषेणेह हातव्या, भूतिम् इच्छता निद्रा तन्द्रा भयं क्रोधः आलस्यं दीर्घसूत्रता। साधारणतया यः मोक्षम् इच्छति ते अन्य षड् दोषाः त्यक्तव्याः इति अस्ति खलु, परन्तु अत्र यः भूतिम् इच्छन्ति, भूतिम् इति वदामः चेत् अर्थम् इत्युक्ते भूमौ वयं किम् इच्छामः, तादृशभूतिम् इत्युक्ते धनम् इच्छामः, कीर्तिम् इच्छामः, अपि च विद्याम् इच्छामः, तादृशं भूतिम् इच्छामः चेत् एते षड् दोषाः त्यक्तव्या, हातव्या इत्युक्ते त्यक्तव्या। पुरुषेण इत्युक्ते जनेन इह इत्युक्ते इदानीमेव, इह अत्र इदानीम् एवं। ते दोषाः के? षड् दोषाः पुरुषेण इह हातव्या, भूमिम् इच्छता इति अस्ति चेत् इच्छता एवम् अस्ति इत्युक्ते द लैकिङ्ग् इति इच्छता, भूतिम् इच्छता। ते दोषाः के इति अस्ति चेत् निद्रा तन्द्रा भयं क्रोधः आलस्यं दीर्घसूत्रता। पुनरेकवारं पश्यामः। ये पुरुषाः भूतिम् इत्युक्ते ऐश्वर्यं, समृद्धिम्, अभिवृद्धिं, सम्पदम्, अपि च विद्याम् अपि किमपि इच्छन्ति ते एते किमपि इच्छन्ति चेत् ते एतान् सर्वान् दोषान् इदानीमेव दूरीकुर्युः इति. दीरीन दूरीकुर्युः, अत्र दोषः अस्ति, अहं परिष्करोमि. दूरीकुर्युः अथवा त्यजेयुः. त्यजेयुः इत्युक्ते लोट्लकारः इव, विदिलिङ्ग्, विदिलिङ्ग् लकारः अस्ति. इदानीमेव त्यक्तव्यम् इति. तेके निद्रा, सर्वत्र निद्रा न करणीया, यत्र करणीयं तत्र एव इत्युक्ते वर्गे स्थित्वा न. तन्द्रा, तन्द्रा इत्युक्ते कालम् अनुसृत्य निद्रां करणीयं रात्रिसमये तादृशं. भयं मास्तु, सर्वेषां भयं मास्तु, सर्वेषु विषयेषु अपि भयं मास्तु. क्रोधः, यत्र क्रोधः करणीयः तत्र एव, यत्र कोपस्य आवश्यकता नास्ति तत्र क्रोधः न दर्शनीयः. यत्र यत्र आवश्यकं तत्र एव. आलस्यम्, आलस्यम् इत्युक्ते अहं कार्यं कर्तुं न इच्छामि, अनन्तरं करोमि, इदानीम् अहं न करोमि, तादृशबुद्धिः एव आलस्यं. वयं तु सर्वदा विद्यार्थिनः एव, जीवने वयं सर्वस्मिन् क्षणे अपि शिक्षणं प्राप्नुमः, अतः अस्मासु कदापि आलस्यं न भवेत्. अनन्तरं दीर्घसूत्रता, दीर्घसूत्रता कार्यम् अद्य करोमि, अद्य न करोमि, श्वः करोमि, परश्वः करोमि इति. विलम्बं कुर्मः चेत् तस्य नाम अस्ति दीर्घसूत्रता. अद्यतनकार्यम् अद्य एव करोमि, इदानीमेव करोमि इति एवं भवेत् अस्माकं मनसि.
निद्रा तन्द्रा, वन् इस् सेयिङ्ग् सर्वत्र निद्रा, वन् इस् सेयिङ्ग् सर्वदा निद्रा. ऐ नॉट एबल टु अंडरस्टैंड द डिफरेंस.
या सो निद्रा इति अस्ति चेत् सर्वत्र, सो दट् इस् लोकेशन्, स्थानम् ओरियेण्टेड्. या
टाइम, ओके,
टाइम ओरियेण्टेड्. स्थानं, कालम्. अस्तु, अहं चिन्तयामि गीतासोपनं प्रति गच्छामः वा कथां पठामः वा, किम् इच्छन्ति? कथा, ओ अस्तु अस्तु, तर्हि अग्रे पठामः. महोदय, भवान् एव आरम्भं करोतु. मैत्री,
मैत्री. पाडलीपुत्रं नाम नगरं, तत्र नन्दः नाम राजा आसीत्. नन्दराजस्य मन्त्री अमात्यराक्षसः. कदाचित् नन्दस्य, चन्द्रगुप्तमौर्यस्य च युद्धं जातम्. युद्धे नन्दः मृतः. पाटलीपुत्रे चन्द्रगुप्तः राजा सञ्जातः. एकं समये पाटलीपुत्रे नन्दः नाम राजा राज्यं करोति स्म. नन्दस्य मन्त्री का नाम अमात्यराक्षसः. नन्दः चन्द्रगुप्तमौर्य च युद्धः जातं. तत् युद्धे नन्दः मृतः. चन्द्रगुप्तमौर्य पाटलीपुत्रस्य राजा भवेत्.
राजा अभवत्. अस्तु, सम्यक्
अभवत्.
अस्तु, व्याकरणदृष्ट्या मन्त्री इति पदं मन्त्रिन् मूलरूपम् अस्ति नकारान्तपदं मन्त्रिन् इति. सो अतः षष्टिविभक्तिरूपं यथा वयं भवत् शब्दः अस्ति खलु, भवत् शब्दः, भवत् शब्दः मन्त्रिन् शब्दः इव एव, इट् बिहेव्स् लैक् दट्. सो अत्र भवत् शब्दस्य षष्टिविभक्ति किं? भवतः एवमेव मन्त्रिन् इति शब्दस्य षष्टिविभक्ति मन्त्रिणः. सो अत्र अन्तिम अक्षरं स्वीकृत्य वयम् अनुमानं वि कन् एस्टिमेट् अनुमानं कर्तुं शक्नुमः एवम् अस्ति इति. सो अत्र मन्त्रिणः नाम, सो अत्र रेफा अस्ति, ऋ अस्ति, अतः मन्त्रिणः नाम इति भवति. मन्त्रिणः नाम अमात्यराक्षसः इति. अस्तु, उत्तमम्. अस्तु, गोपिका भगिनी अग्रे.
आं भगिनि, एकः प्रश्नः अत्र. अमात्य इति अपि अर्थः मन्त्री खलु?
आम् आम्, सम्यक्. अमात्य अपि मन्त्री, परन्तु अमात्यराक्षसः अहं चिन्तितवती तस्य नाम तथा एव अस्ति. ओ एवं वा?
Yeah, he is supposed to be a counterpart to Chanakya. Means, there are similar profile people.
Astu. Okay, so I was trying to find out, but I didn't have time. Okay, uttama. So if you can find out, share here, Mahodaya. It will be nice.
Let me dig it out. I don't have it ready made. I read about him at least. Let me dig it out.
Okay, sure. Appreciate it. Now, astu Gopike.
आं भगिनि, अमात्यराक्षसः नन्दस्य पक्षपाति, अतः अमात्यराक्षसः पाटलीपुत्रं त्यक्त्वा देशान्तरं गन्तव्यम् इति चिन्तितवान्. चन्दनदासः अमात्यराक्षसस्य मित्रं, चन्दनदासगृहे पत्नीं पुत्रं च स्थापयित्वा अमात्यराक्षसः देशान्तरं गतवान्. अत्र अमात्यराक्षसः इति मन्त्री अस्ति, तस्य अमात्यराक्षसः नन्दस्य पक्षपाती आसीत्, अतः अमात्यराक्षसः चिन्तितवान् यत् अहं पाटलीपुत्रं त्यक्त्वा देशान्तरं गन्तव्यम् इति सः तीर्मानं कृतवान्. छन्ददासः इति एकः अस्ति, सः अमात्यराक्षसस्य मित्रम् आसीत्. सो चन्दनदासगृहे पत्नीं पुत्रं च सः स्थापयित्वा अमात्यराक्षसः देशस्य अन्तरं गतवान्.
सम्यक्. अत्र
पक्षपाति इति अर्थः कः?
सो तस्य मित्रमेव आसीत् नन्दः इति, नन्दराजः, नन्दराजस्य मित्रं सः. सो अतः नन्दः मृतः इति इति स्थिति अस्ति, अतः सः चिन्तयति एतस्मिन् देशे अहं न वसामि, यत्र मम मित्रं नन्दः राजा न, तत्र अहं न वसामि, अहं त्यक्त्वा अन्यदेशं गच्छामि इति. पक्षपाति लैक् दट्. अत्रापि पक्षपातिन् लैक् मन्त्रिन् पक्षपातिन्.
अत्र विशेषणं भवति वा पक्षपाति?
पक्षपाति इस् लैक् मन्त्री, लैक् विद्यार्थिन् अस्ति, विद्यार्थिन् इति अस्ति नामपदमेव, विशेषणं नास्ति. नन्दः इति पुल्लिङ्गपदम्, अतः पक्षपाती पुल्लिङ्गपदं, तादृशं विशेषणम् अपि स्वीकर्तुं शक्नुमः. परन्तु अत्र पक्षपाती मन्त्री इव, मन्त्रिणी स्त्रीलिङ्गे भवति, पक्षपातिनी विद्यार्थिनी स्त्रीलिङ्गे, परन्तु अत्र पक्षपाती इति पुल्लिङ्गपदम्. अमात्यराक्षसः पक्षपाती, सो तादृशं पश्यामः चेत् विशेषणमेव. अस्तु, सो अत्र अन्यत् एकं वक्तुम् इच्छामि. सो अत्र देशान्तरम्, आन्तरम् इति अस्ति चेत् एकदेशं, एकस्मात् देशात् अन्यदेशं, देशान्तरम् इति. ग्रामान्तरम् इति अस्ति चेत् ग्रामतः अन्यग्राम, तादृशम्. अत्र देशान्तरम् अस्ति चेत् देशतः अन्यदेशं गन्तव्यम् इति चिन्तितवान्. अस्तु, सो अवगच्छन्ति खलु, तस्य मित्रमस्ति चन्दनदासः इति. चन्दनदासस्य गृहे पत्नीं पुत्रं च त्यक्त्वा स्थापयित्वा सः अन्यदेशं गतवान्. अस्तु, अम्ब पठितुमिच्छति वा?
भगिनि एकः प्रश्नः, क्षम्यताम्. देशान्तरम् इति देशस्य अन्तरम् इति कर्तुं शक्नुमः वा?
देशस्य अन्तरम्, अन्तरं लैक् भाषा अन्तरं मिलित्वा एव अस्ति, परन्तु देशस्य अन्तरमपि वक्तुं शक्नुमः. परन्तु सर्वदा देशान्तरं, भाषान्तरम् एवमेव समस्तपदमेव वदामः.
ओ, अत्र देशात् अन्यदेशं गच्छति
इति अर्थः.
हलो,
आम् आम् अम्ब.
चाणक्यः चन्द्रगुप्तस्य गुरुः. चाणक्यः चिन्तितवान् देशभक्त अमात्य राक्षसः चन्द्रगुप्तस्य मन्त्री भविष्यति चेत् देशस्य हितं भविष्यति इति. अतः सः अमात्यराज्य राक्षसस्य सङ्ग्रहाय प्रयत्नं कृतवान्. चाणक्य नाम, चाणक्य नाम
कस्य गुरुः? सः
चन्द्रगुप्तस्य गुरुः चाणक्यः.
चाणक्यः, अस्तु.
चाणक्यः चिन्तितवान् अतः चन्द्रगुप्तस्य अमात्यराक्षसः देशभक्तः चन्द्रगुप्तस्य मन्त्री भविष्यति चेत् देशस्य हितं भविष्यति भविष्यति इति.
देशं सम्यक् भवति, सः चन्द्रगुप्तस्य मन्त्री भवति चेत् देशमपि सम्यक् भवति. किमर्थम् इत्युक्ते देशं सः जानाति, सम्यक्तया जानाति. पूर्वं सः मन्त्री आसीत्, अतः अनुभवः अपि अस्ति. अतः अमात्यराक्षसं मन्त्रिस्थाने स्थापयामः इति सः चिन्तयति. अतः किं कृतवान्?
अमात्यराक्षसस्य सङ्ग्रहाय प्रयत्नं कृतवान्.
प्रयत्नं कृतवान्. सः कुत्र अस्ति इति सङ्ग्रहाय प्रयत्नं कृतवान्. धन्यवादः. अस्तु, अग्रे जयश्री भगिनी.
भगिनी, सङ्ग्रहाय इत्युक्ते किं? सोर्सेस्
सङ्ग्रहाय इस् टु कलेक्ट् बट् हियर् इन् आल् इट् इस् नाट् रियलि कलेक्ट् सर्च् आर् टु कलेक्ट् इन्फर्मेशन्.
अस्तु भगिनि, धन्यवादः.
आं भगिनि, एकस्मिन् दिने चाणक्यः चन्दनदासम् आहूतवान्
चन्दनदासः चाणक्यस्य समीपम् आगतवान्। चाणक्यः पृष्टवान्, चन्दनदासः भवतः गृहे आमत्यराक्षसस्य पत्नी पुत्रः च अस्ति किल इति। एकस्मिन् दिने चाणक्यः चन्दनदासः अमात्यराक्षसस्य मित्रः चन्दनदासं आहूतवान्। चाणक्यः चन्दनदासे पृष्टवान्, चन्दनदासः भवतः गृहे अमात्यराक्षसस्य पत्नी पुत्रः अस्ति किल इति पृष्टवान्। चाणक्यः चन्दनदासः अमात्यराक्षसस्य मित्रे सङ्ग्रह विषयसङ्ग्रह कारयिष्यवान्।
सः अमात्यराक्षसः पुत्र अस्ति इति विषयं सङ्ग्रहणार्थं चन्दनदासस्य गृहं गत्वा अमात्यराक्षसस्य पत्नीपुत्रः अत्र अस्ति किल, अहं जानामि इति तादृशं पृष्टवान्। अस्तु, धन्यवादः भगिनि। लता भगिनी अग्रे।
आं भगिनि, चन्दनदासः मम गृहे अमात्यराक्षसस्य पुत्रः पत्नी वा नास्ति। चाणक्यः, चन्दनदास भवते बहु धनं ददामि, रत्नानि ददामि, अधिकारम् अपि ददामि, सत्यं वदतु, अमात्यराक्षसस्य पत्नी पुत्रं च समर्पयतु। चाणक्य पृष्टवान् यदि चन्दनदासस्य गृहे अमात्यराक्षस्य पत्नी पुत्रः अस्ति वा इति। चन्दनदास उक्तवान् मम गृहे किमपि नास्ति, पुत्रपत्नी नास्ति इति। चाणक्यः उक्तवान् अहं अधिकं धनं ददामि, रत्नानि ददामि, अधिकारम् अपि ददामि, सत्यं वदतु, मह्यं पत्नीपुत्रं ददातु इति उक्तवान्।
सम्यक् भगिनि, अस्तु, धन्यवादः भगिनि। अग्रे सागरी भगिनि।
आं भगिनि, समर्पयतु इत्युक्ते
अर्पयतु, ददातु, तादृश अर्थे,
लैक् ब्रिङ्ग् देम् टु मी, समथिङ्ग् लैक् दट्,
आफर् देम् टु मी, लैक् दट्।
आं भगिनि, चन्दनदासः मम गृहे अमात्यराक्षस्य पत्नी पुत्रः वा नास्ति, नास्ति, नास्ति। चाणक्यः, चन्दनदास भवान् सत्यं न अङ्गीकरोति चेत् भवन्तं कारागृहे स्थापयामि। चाणक्य पुनः पुनः पृष्टवान्, किन्तु चन्दनदासः न अङ्गीकृतवान् यत् अमात्यराक्षस्य पत्नी पुत्रः तस्य गृहे वसन्ति इति। तदनन्तरं चाणक्य वदति, भवान् यत् सत्यं न अङ्गीकरोति चेत् अहं भवतां कारागृहे स्थापयामि इति. भगिनि
कारागृहे इत्युक्ते
जैल्.
भवान् सत्यं न वदति चेत् अहं भवन्तं कारागृहे स्थापयामि. सो अत्र केवलं ऐम् जस्ट् पायिण्टिङ्ग् औट् भवते चतुर्थी विभक्ति भवन्तं द्वितीया विभक्ति स्टे इन् अवर् हेड् एतादृशं. धन्यवादः भगिनि. सन्ध्या भगिनी वक्तुं शक्नोति वा भगिनि?
क्षम्यतां भगिनी, प्लीस् एक्स्क्यूस् मी टुडे.
अस्तु 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 अस्तु, भवती लिखितवती अतः एव पृष्टवती. अस्तु, सविता भगिनी.
आं भगिनि. चन्दनदासः, अस्तु नाम मम दुःखं नास्ति. चाणक्यः चन्दनदासं कारागृहे स्थापितवान्. एवम् अनेकानि दिनानि गतानि. चाणक्यः आज्ञां कृतवान् चन्दनदासं शूलम् आरोपयन्तु इति. चन्दनदासः चाणक्यस्य आज्ञां श्रुत्वा उक्तवान्, मित्रनिमित्तं प्राणत्यागं करोमि, अतः मम महान् सन्तोषः इति.
अस्तु.
चाणक्यः कारागृहे चन्दनदास कारागृहं स्थापितवान् इति आदेशं कृतवान्. चन्दनदासः हि वास् रेडि फार् दट् आल्सो. चन्दनदासः
सिद्धः आसीत्.
सिद्धः आसीत् चाणक्यः चन्दनदासे कारागृहे स्थापितवान्. अनेकानि यातनं कृतवान्. अनेकानि दिनानि गतानि. चाणक्य आज्ञां कृतवान् शूलं चन्दनदासं शूलम् आरोपयन्तु इति. चाणक्य आज्ञां कृतवान् चन्दनदासः चाणक्याम् आज्ञां श्रुत्वा उक्तवान्, मित्रनिमित्तं प्राणत्यागं करोमि इति उक्तवान्, अतः मम महान् सन्तोषः इति उक्तवान् चन्दनदासः. करेक्ट् भगिनि?
करेक्ट् भगिनि. सो अत्र
विलिङ्ग् टु साक्रिफैस् फार् हिस् फ्रेण्ड्, दट्स् वाट् हि मीन्स् चन्दनदासः.
आम् आम्. चन्दनदासं शूलम् आरोपयन्तु इत्युक्ते मरणदण्ड.
शूलम् इस् दट् some weapon, isn't it, to hit him with that?
To kill him with a weapon like that. Shulam aropayantu itite marana dandana. That's another
spear, like spear. Like shulam is something like a spear, isn't it?
Spear like, you know,
put shulam is three and shulam is only one, isn't
it?
No, in the history shulam means it's a sharp object with a long stake. The man is made to
something like a spear. चाणक्यः सामदानदण्डभेदम् उपयोगं कृतवान् चन्दनदासे.
सो तादृश इन् दोस् डेस् दिस् इस् हौ इट् वास् डन्. द मरणदण्डनम् इस् डन् लैक् दट्. सो यु टेक् द शूलम्, यु स्पियर्स् थ्रू देर् एण्टायर् बाडि लैक् दट्. It is basically marana dandanam. So chanak chandanadasah mitra nimittam, mitrasya, like nimittam is like we say, right, shashti vibhakti apicha krite mitrasya krite tadrisham mitrasya nimittam chaturthi vibhakti bhavati mitraya प्राणत्यागं करोमि.
फार् द सेक् आफ् हिस् फ्रेण्ड्,
मम महान् सन्तोषः. महान् इस् लैक् भवान्. महत् शब्दः सन्तोषः पुल्लिङ्ग सो इट् इस् महान् सन्तोषः महान् सन्तोषः इति
मैटि साटिस्फाक्षन्
मैटि अहम् ऐ एम् वेरि साटिस्फैड् इति न न इट् इस् चतुर्थी अर्थं सूचयति निमित्तम् इस् लैक् कृते मित्रस्य कृते मित्रस्य निमित्तं मित्राय प्राणत्यागं करोमि अस्तु भगिनि उषा भगिनि अन्तिम पदच्छेदम्
अमात्य राक्षसः एतत् सर्वं वृत्तान्तं श्रुतवान् सः परममित्रस्य जीवरक्षणार्थं चाणक्यं शरणं गतः चाणक्यः अमात्य राक्षसं मन्त्रिस्थाने नियोजितवान् एक्स्क्यूस् मी चाणक्यः अमात्य राक्षसं मन्त्रिस्थाने नियोजितवान् चन्दनदासम् उक्तवान् च चन्दनदास भवतः मैत्री असाधारणी अहम् अनया अतीवसन्तुष्टः अस्मि अतः भवान् वणिजां प्रमुखः भवतु इति सो एतत् सः परममित्रस्य जीवरक्षणार्थं चाणक्यं शरणं गतः अमात्यराक्षसः गतवान् शरणम्
अमात्यराक्षसः प्रथमं श्रुतवान् एतत् सर्वं वृत्तान्तं श्रुतवान् यत् यत् किम् अभवत् तत् तत् सर्वं श्रुतवान् अनन्तरं सः किं कृतवान् परममित्रस्य इत्युक्ते चन्दनदासस्य जीवरक्षणार्थं चाणक्यं प्रति आगतवान् he surrendered like that
sharanam gata okay sharanam
gata sharanam gata
chanakyah amatya rakshasam mantri sthane niyojitavan he took in place of chandana dasa he put amatya rakshasam
no he wanted only amatya rakshasah सो अमात्यराक्षसं मन्त्रिस्थाने स्थापितवान् नियोजितवान् स्थापितवान् अनन्तरं चन्दनदासः उक्तवान् चन्दनदासम् उक्तवान् किम् उक्तवान् हे चन्दनदास भवतः मैत्री असाधारणी साधारण मैत्री न असाधारणी भवान् मित्रनिमित्तं प्राणत्यागमपि कर्तुं सिद्धः आसीत् अतः अहम् अनया इत्युक्ते एतेन मैत्री अहम् अतीवसन्तुष्टः अस्मि
तृतीया विभक्तिः वा अत्र
एतेन अनया लैक् दट् सो अत्र लुक सन्तोषः इस् अ नामपदं रैट् प्रथमा महान् सन्तोषः मम महान् सन्तोषः अहम् अतीवसन्तुष्टः सो टु वेस् आफ् सेयिङ्ग् दट् सो अत्र सन्तुष्टः इति विशेषणम् अहं सन्तुष्टः अस्मि मम सन्तोषः अस्ति लैक् दट् मम सन्तोषः अस्ति अहं सन्तुष्टः अस्मि अतः भवान् वणिजां प्रमुखः भवतु अत्रापि वणिज् कामर्स् मर्चेण्ट् या प्रमुखः भवतु यु विल् बि द चीफ् लैक् प्रमुखः
Chief businessman.
Hmm. you'll be in charge, like that. Uttama katha kalu. He wanted Amatya Rakshasaha. So the way he went is, he went after his friend. He knew that Amatya Rakshasaha will come out.
That is Chanakya, Bhagini.
That is Chanakya.
This is a story which I could lay on immediately. I put it in a group, actually.
Oh, dhanyavada, Maudhya. Dhanyavada. Astu. Astu. Idanim vayam Gita sopanam prati gacchama. Astu. Kutra smaha vayam as dhatu. Bhutakala. Etat sarvam kritavantaha vayam kada saptami vibhakti abhavat. Idanim. Saptami vibhakti abhavat. Idanim. భూతకాల అస్ ధాతు. సో అత్ర అస్ ధాతు భూతకాలం లకారః అస్తి. కథం జానీమః లకారః ఇతి? ఏషః అర్జునః అస్తి అజ్ఞాతవాసే. ఏషః బృహన్నలా ఆసీత్. బృహన్నలా స్త్రీలింగ. ఆసీత్ ఏషా ద్రౌపదీ అజ్ఞాతవాసే. ఏషా సౌరంద్రీ ఆసీత్ స్త్రీలింగే. సౌరంద్రీ స్త్రీలింగే ఆసీత్. పరంతు అత్ర యుధిష్ఠిరః కంకః ఆసీత్. అత్ర అపి ఆసీతేవ. లింగభేదః నాస్తి. యత్ర లింగభేదః నాస్తి తత్ నిశ్చయేన లకారః ఏవ. భూతకాల లకారః. సః ఆసీత్. సా అపి ఆసీత్. భీమః వల్లవః ఆసీత్. నకులః గ్రంథికః ఆసీత్. సహదేవః తంతిపాలః ఆసీత్. సర్వత్ర ఆసీతేవ. సో అత్ర వర్తమానకాలః. అస్తి స్తః సంతి. అసి స్తః స్త. అస్మి స్వః స్మః. ఏతత్ వయం జానీమః. ఇదానీం భూతకాలే కథం భవతి? ఆసీత్ ఆస్తాం. ఆసన్ వయం పూర్వమేవ జానీమః. ఆసన్ ఏతత్ నూతనం. ఆసీహి ఆస్తం. ఆస్త ఆసం ఆస్వ ఆస్మ. ఆసం ఆస్వ ఆస్మ. ఆసీహి ఆస్తం ఆస్త. ఆసీత్ ఆస్తాం ఆసన్ ఇతి భూతకాల అస్ ధాతు రూపాణి. కోపి పఠతి వా? అధస్తాత్ గచ్చామః. ఇదానీం ఉషా భగిని పఠతి వా భూతకాల అస్ ధాతు రూపాణి?
భూతకాలే అస్ ధాతు అస్ ధాతుః రూపాణి. ప్రథమ పురుష ఏకవచనం ఆస్తి. ద్వివచనం ఆస్థానం. బహువచనం ఆస్థానం. మధ్యమ పురుష ఏకవచనం ఆస్తి. ద్వివచనం ఆస్థానం. బహువచనం ఆస్త. ఉత్తమ పురుష ఆస్తం. ద్వివచనం ఆస్త. బహువచనం ఆస్మ.
పునః పునః పఠామః చేత్ మనసి తిష్టతి. ఆసీత్ ఆస్తాం ఆసన్ ఆసీహి. అత్ర అత్ర ఏవ విసర్గః అస్తి. అనంతరం త్వం యువాం యూయం. త్వం ఆసీహి వయం ఆస్మ. సమ్యక్. ఏతాదృశం అస్తి. అస్తు అభ్యాసం కుర్మః వా? సవితా భగిని.
आम भगिनि.
अस्त अभ्यास
यथोदाहरणं रिक्तस्थानानि पूरयतः. एकवचनं द्विवचनं बहुवचनं प्रथमपुरुषः. सः वाक्पटुः आसीत्. तौ वाक्पटु आस्ताम्.
वाक्पटु
तौ वाक्पटु आस्ताम्. ते वाक्पटवः आसन्. मध्यमपुरुष त्वं वाक्पटु आसीः त्वं वाक्पटु आसीः
त्वं वाक्पटु
पटुः आसीः
आसीः
युवां वाक्पटु आस्तम् यूयं वाक्पटवः आस्त
सम्यक्
उत्तमपुरुष अहं वाक्पटुः आसन् आसम्
आसम्
आवां वाक्पटु आस्व वयं वाक्पटवः आस्म
आस्व आस्म सम्यक् सम्यक् अस्तु इदानीं वयम् अन्यदेकं भूतकालरूपं सो अत्र तवत्तु प्रत्यय सो अत्र प्रत्ययः अस्ति प्रत्ययः इति वदामः चेत् लकारः न लकारः न भवति किमर्थम् इत्युक्ते अत्र लिङ्गभेदः अस्ति एकनिमिषः सो अत्र तवत्तु प्रत्यय सम्यक् वदति वाक् तवतु किम् स्किल्फुल् इन् टाकिङ्ग्
स्कालर् भगिनि
नो हि स्पीक्स् वेल् सो द पटु वि केन् यूस् इट् फार् अदर् थिङ्ग्स् आल्सो क्रीडा पटुः पटुः मीन् सम्बडि हूस् एन् हूस् एन् एक्स्पर्ट् लैक् दट् वेरि स्किल्ड् इन् संथिङ्ग् सो अत्र अग्रे वयं भूतकालरूपं सो अत्र तवतु प्रत्यय सो अत्र गतवान् अति अस्ति गतवती अपि अस्ति सो अतः लकारः न वयम् एतत् जानीमः अतः पठित्वा गच्छामः अस्तु सविता भगिनि पठतु कृपया
आं भगिनि पठत अवगच्छ च वर्तमानकाले भूतकाले प्रथमः युधिष्ठिरः नगरं गच्छति युधिष्ठिरः नगरं गतवान् दुर्योधनः अपि नगरं गच्छति दुर्योधनः अपि नगरं गतवान्
सो अतौ एकनिमिषं भगिनि सो अत्र युधिष्ठिर सो अत्र युधिष्ठिरः नगरं गच्छति अत्र क्रियापदं किम् युधिष्ठिरः नगरं गच्छति
गच्छति इति
सो लेट् सविता भगिनी आसन् गच्छति इति सम्यक् धन्यवादः गोपिका भगिनी सो अत्र युधिष्ठिरः नगरं गतवान् इति अस्ति सो अत्र क्रियापदं किम् अत्र सो अत्र न सो अत्र क्रियापदम् अस्ति अथवा आसीत् क्रियापदं नास्ति एतस्मिन् वाक्ये क्रियापदं नास्ति किमर्थम् इत्युक्ते गतवान् इति प्रत्ययः एव सो गतवान् साक्षात् विशेषणं युधिष्ठिरस्य विशेषणम् युधिष्ठिरः गतवान् इति गतवान् युधिष्ठिरः अस्ति एवं वक्तुं शक्नुमः सो गतवान् इस् अ विशेषणम् आफ् युधिष्ठिरः तवत् प्रत्यय सो अत्र क्रियायाः अर्थं सूचयति परन्तु क्रियापदं नास्ति क्रियापदम् अस्मिन् वाक्ये नास्ति परन्तु अस्ति आसीत् योजयितुं शक्नुमः वयं सो दट् इस् अ बिग् डिस्टिङ्क्षन् बिट्वीन् अस् धातु लकारः अस्ति चेत् एवं भवति परन्तु अत्र केवलं प्रत्ययः एव. अस्तु भगिनि, अग्रे गच्छतु. तौ
गतवान् दशन् बिकम् द क्रियापदम् अस्ति अण्ड् आसन् इस् अण्डर्स्टुड् अण्ड् दट् इस् बिकम् द क्रियापदम्
तौ सर्वान् नगरजनान् पश्यतः. तौ सर्वान् नगरजनान् दृष्टवन्तौ.
तौ
सर्वे मिलतः. तौ सर्वे मिलितवन्तौ.
सो अत्र वयम् इदानीमेव पठितवन्तः खलु. सो प्रथमपुरुष एकवचनमस्ति चेत् आसीत्, वयं भूतकालरूपं पश्यामः. वर्तमानकालम् अस्ति, अस्ति आसीत्. एवमेव द्विवचनम् अस्ति चेत् कथं भवति? अस्ति स्तः, अस्ति स्तः, आसीत् आस्ताम्, तौ सर्वान् नगरजनान् दृष्टवन्तौ स्तः. दट् मीन्स् यु हाव् सीन् द सिटि पीपल्. यु हाव् सीन् आल् द सिटि पीपल्. परन्तु आस्ताम् इति लिखामः चेत् यु हाड् सीन् आल् द सिटि पीपल् इति अर्थे भवति. अवगच्छन्ति वा?
You have had seen or what, Bhagini?
Yeah, you have. So, atra, Yudhishthirah nagaram gatavan asti iti vadamaha chet, Yudhishthirah has gone to the nagaram, has iti bhavati, vartamana kala, has, he has gone, that means he just went, iti arte. So we can imply he is still there iti. Parantu asit iti vadamah chet he had gone. Idanim saha tatra astiva nastiva na janimah iti arte. So atra tau iti vadamah chet tau staha tau astam. भूतकाले आस्ताम् इति भवति. सो इफ् यु वेर् टु एड् दि अस् धातु एवं भवति. तौ सर्वान् नगरजनान् दृष्टवन्तौ स्तः, दट् मीन्स् यु हेव् सीन्. और् तौ सर्वान् नगरजनान् दृष्टवन्तौ आस्ताम्, यु हेड्, बोत् आफ् यु हेड्, और् बोत् आफ् देम्, नाट् यु, बोत् आफ् देम्. Both of them had seen iti arte bhavati. Astu. Agre bhagini, Sagari bhagini agre.
Bhagini. Putra bhagini,
Yudhishthiraha ekamapi.
Yudhishthiraha ekamapi. दुर्जनं न प्राप्नोति. युधिष्ठिर एकमपि दुर्जनं न प्राप्तवान् अस्ति.
अस्ति किमर्थम् इत्युक्ते एकवचनमेव अस्ति अथवा अस्ति. सम्यक्, अग्रिमम्
भगिनी एकः प्रश्नः. प्राप्नोति इति मिलितवान् इति अर्थे वा प्राप्नोति?
उत्तमप्रश्नः. प्राप्नोति इति अस्ति चेत् अत्र द्वयम् अस्ति. एकम् अस्ति अहं जलं प्राप्नोमि, अहं दुर्जनं प्राप्नोमि, ऐ गाट् इति अर्थे, ऐ गाट्. अन्येन प्राप्नोति इति वचे ऐ रीच् इति अस्ति.
अस्तु,
अत्र गाट् इति लिखितवान्,
धन्यवादः
धन्यवादः भगिनि अस्तु भगिनि सागरी भगिनि अग्रे दुर्योधनः
दुर्योधनः एकमपि सज्जनं न प्राप्नोति दुर्योधनः एकमपि सज्जनं न प्राप्तवान् अस्ति अथवा आसीत् किमर्थम् इत्युक्ते प्रथमाविभक्ति अतः
एकवचनं
सोरि एकवचनं
प्रथम पुरुषः प्रथमपुरुषः
प्रथमपुरुषः यस्
या ऐ गेट् कन्फ्यूस्ड् अ लाट् आल्सो सम्यक् एव अग्रे यथा
अहं पठामि वा भगिनि
आम् आम् आम्
यथा दृष्टिः अस्ति तथा दर्शनं यथा दृष्टिः आसीत् तथा दर्शनं अस्ति
अस्ति आसीत् किमपि अत्र तावत् प्रत्यये नास्ति तावत् प्रत्यये नास्ति अस्तु भगिनि धन्यवादः अस्तु अग्रे गच्छामः सो इदानीं स्त्रीलिङ्गे सैरन्ध्री सेविका अस्ति इदानीं सैरन्ध्री सेविका आसीत् अत्र किमपि नूतनविषयः नास्ति सा राज्ञीं सेवते सो अत्र यथा राजा इति अस्ति खलु राजा इति साधारणतया राजन् इति शब्दः दिस् अ वेरि डिफिकल्ट् शब्द किमर्थम् इत्युक्ते रूपं रूपपरिवर्तनं बहुत्र अस्ति सो षष्टिविभक्ति राज्ञः इति भवति स्त्रीलिङ्गे राजा राज्ञी एव स्त्रीलिङ्गे भवति राजन् शब्दः पुल्लिङ्ग परन्तु स्त्रीलिङ्गे राज्ञी अस्तु सा राज्ञीं सेवते सेवते इत्युक्ते सेवां करोति सा राज्ञीं सेवते सा राज्ञीं सेवितवती सो अत्रापि किं भवति अस्ति आसीत् एव किमर्थम् इत्युक्ते लिङ्गभेदः नास्ति अस्ति आसीत् सा राज्ञीं सेवितवती अस्ति सा राज्ञीं सेवितवती आसीत् एवमेव भवति अत्र अस्तु राज्ञी इस् अ किङ्ग् ऐ मीन् क्वीन् सारी क्वीन् इट् इस् जस्ट् फार् स्त्रीलिङ्ग इट् इस् राज्ञी पुल्लिङ्ग इट् इस् सो केवलं राजा इति भवति राज्ञी परन्तु सो इफ् यु हेव् लैक् महाराज उदाहरणार्थं महाराजः विल् बिहेव् लैक् एन् अकारान्त पुल्लिङ्गपदं महाराजस्य नाम एवं भवति परन्तु केवलं राजा इति शब्दः अस्ति चेत् देन् राज्ञः नाम एवं भवति सो इट्स् बेटर् टु एड् संथिङ्ग् महाराज अस्तु अस्तु अग्रे सा केशप्रसादनं करोति सा केशप्रसादनं कृतवती अत्रापि अस्ति आसीत् एवं भवति सो अत्र नूतनविषयः नास्ति सा प्रतिफलं न इच्छति सा प्रतिफलं न इष्टवती अस्ति आसीत् सा नम्रतया तिष्ठति सा नम्रतया स्थितवती स्थित इष्ट भिन्नभिन्न रूपं भवति. तिष्ठति साधारणतया स्था धातु, धातु अस्ति स्था, अत्र धातु अस्ति इश्, अत्र कृ, एवं भिन्नभिन्नरूपं भवति. कृ धातु करोति भवति, इश् धातु इच्छति इष्टवति, स्था धातु तिष्ठति स्थितवति इति भवति. अभ्यासेन वयं स्मर्तुं शक्नुमः सर्वं.
भगिनी प्रश्नः, प्रतिफलम् इत्युक्ते प्रशंसा वा?
प्रतिफलम् इत्युक्ते समथिङ्ग् इन् रिटर्न्, रिवार्ड्. या ऐ थिङ्क् यु केन् से प्रशंसा आल्सो प्रतिफलम्.
अस्तु.
I don't want anything in return. Iti. Prati. Prati usually means something in return. Parantu prashansam is also some way of something in return. Okay. Astu. Astu. Lata Bhagini, patativa agre?
Aam Bhagini. Tvam desha bhakti gitam gayasi. त्वं देशभक्तिगीतं गीतवती. युवां सर्वदा सत्यं वदतः. युवां सर्वदा सत्यम् उक्तवन्तौ. यूयं भजत्वे. यूयं भक्तवन्तः. अहं भुञ्जे. अहं भुक्तवान्.
भुक्तवान् भुञ्जे. एते आत्मने
अर्थं किं भगिनि?
Bunje is to eat, khad.
Eat, okay. Dhanyavada.
Ast, dhanyavada. So, atra, tvam iti asti chet, ast, ast dhatu katam bhavati, tvam. Asti staha santi.
Asihi.
Asihi, bhutakala, asihi.
Tvam asi?
Asi, असि. सो अत्र अस् अस् धातुं योजयामः चेत् त्वं देशभक्तिगीतं गीतवती असि. यु हेव्, यु हेड् इति वदामः चेत् त्वं देशभक्तिगीतं गीतवती आसीः. यु हेड् इति. युवां कथं भवति? असि. युवां सर्वदा सत्यम् उक्तवन्तौ स्तः. यु हेव्, बोत् आफ् यु हेव् इति. भूतकालं कथं भवति? आस्तम् इति भवति. यूयं कथं भवति? अत्र स्त एव, अत्र सः स्तकाले अत्र पश्यतु. असि स्तः स्त. आसीः आस्तम् आस्त. आस्त. अवगच्छन्ति वा सर्वे अहं किं लिखामि इति?
आं भगिनि.
उत्तम. सो अत्र whenever we have that tavatu pratyaya, atra tavatu pratyaya kriyayaha artham suchayati, parantu kriyapadam nasti. Kriyapadam avashyakam chet asdhatum upayujya puranam kartum shaknumah, purayitum shaknumah, vakyam puranam bhavati. Aham bunje, भुञ्जे इत्युक्ते अहं खादामि इति अर्थे अहं भुञ्जे अहं भुक्तवान् अहं भुक्तवती सो अहम् इति अस्ति चेत् अस् धातु कथं भवति
अस्मि
अस्मि भूतकाल
आसम्
आसम् आसम् आसम् आसम् आस्व आस्म एवमेव अस्मि स्वः स्मः ओके अस्तु सो अत्र आ अस्ति अत्र आ नास्ति अस्तु अस्तु अग्रे किम् अस्ति इति पश्यामः तवतु रूपं तवतु प्रत्ययान्तं रूपं पुल्लिङ्गे तवतु प्रत्यय अन्तम् अन्तम् अन्ते एवम् अस्ति अतः तवतु प्रत्ययान्तं रूपं पुल्लिङ्गे एवम् अस्ति पठति पठितवान् पठितवन्तौ पठितवन्तः इच्छति सो अत्र पट् पट् धातु एवं भवति अत्र इष् धातु कृ धातु गायति इस् आक्चुलि गै धातु गै गै धातु एवं भवति अस्तु कोऽपि पठति वा जयश्री भगिनी
इष्टति करोति कृतवान् कृतवन्तौ कृतवन्तः
कृतवान् कृतवन्तौ कृतवन्तः गायति
गायति गीत गीतवान् गीतवन्तौ गीतवन्तः
सम्यक् सम्यक् सो अत्र वयं कथं जानीमः गीतवन्तौ इति न जानीमः खलु जानीमः सो वि हाव् टु लुक् अट् अष्टाध्यायी अष्टाध्यायी इस् अ गुड् सोर्स् अस्तु धातुपाठः सो वयं गायति इति किमपि न जानीमः चेत् ऐ जस्ट् रैट् गायति किं भवति सो अत्र गै धातु धातु अस्ति गै गै धातु अस्ति अत्र क्लिक् कुर्मः गै धातु कृदन्तरूपम् इति अस्ति कृदन्तरूपं तवतु कुत्र अस्ति तवतु गीतवान् गीतवती गीतवान् गीतवती अदर्वैस् वि केनाट् फैण्ड् औट् अस्तु वा सो अत्र अत्र गै धातु अस्ति गीतवान् गीतवती सम्यक् भगिनि अस्तु अम्ब अग्रे
धृतवन्तौ
बहुवचन सम्यक् धृतवन्तः सो अत्र धरति इति अस्ति चेत् धातुरूपं किं भवति पश्यामः धरति
धृ भगिनि
धृ एव परन्तु ऐ जस्ट् वाण्ट् टु शो धरति धरति इति अस्ति चेत् धृ धृ सम्यक् अस्तु अग्रे गोपिके
आं भगिनि भजति तत्वा भजति बज् धातु वा अत्र
पश्यामः वा बज् बज् धातु अत्र कृदन्तरूपं
भक्तवान् भक्तवान् भक्तवन्तौ भक्तवन्तः
भक्तवान् भक्तवन्तौ भक्तवन्तः सो अत्र भज् एव भज् अनन्तरं भक्त् अभवत् अस्तु श्रीनिवास महोदय
क्रीडति क्रीडितवान् क्रीडितवन्तौ क्रीडितवन्तः
हा सम्यक् साधारणधातु एव क्रीड् धातु क्रीडितवान् अन्यत् एकमपि करोतु
नयति नीतवान् नीतवन्तौ नीतवन्तः
नीतवन्तः सो अत्र धातु अस्ति नि पश्यन्तु सर्वे धातु इस् नि गोपिके गर्जति
गर्जति गर्जितवान् गर्जितवन्तौ गर्जितवन्तः
गर्जितवन्तः सो अत्र गर्ज् गर्ज् एव धातु साधारणतया दिस् इस् द पेटर्न् इतवान् लैक् पट् पठितवान् गर्ज् गर्जितवान् सो दिस् इस् आल् भुवादिगण भुवादिगणे दिस् इस् दिस् इस् वाट् वाट् विल् हेपन् इतवान् पट् धातु पठितवान् क्रीड् धातु क्रीडितवान् गर्ज् धातु गर्जितवान् एवं भवति साधारण साधारणधातु एवम् एवं भवति अस्तु
अत्र भक्तवान् इति बुद्धिमान् इव विशेषणमेव भवति भक्तवान्
बुद्धिमान् अन्य भगिनि इदानीं न यस्य बुद्धि अस्ति सः बुद्धिमान् इति भवति बुद्धिमान्
आं भगिनि
भक्तिमान् आम् यस्य भक्ति सः भक्तिमान् अस्तु भक्ति
भक्तिमान् इस् देयर् इस् दट् करेक्ट्
आम् भक्तिमान् इस् भक्ति
भक्ति ओ भजति इस् वर्ड् हियर्
राइट् आम् भजति फ्रॉम देयर वी गेट भक्तवान् भक्तवन्तौ भक्तवन्तः एंड देन वी गेट भक्ति हि
भक्तवन्तः भक्ति हि
तत् नामपदं भवति खलु भक्तिः
नामपदं भक्तिः सो अत्र सो क्रियापदतः नामपदम् अभवत् आगच्छतु फ्रोम् द क्रियापदं वि गाट् अ नामपदम् ऐ सेट् लैक् दा धातु or even gai, right? Gai. Gai dhatu. And then you have gayakaha. You have gayati saha gayakaha. Like that.
So here, yaha bhajati saha bhakti. No,
it
doesn't work.
Bhagini.
Yaha bhajati saha bhakti maan.
Bhakti maan. Okay.
Kridati kridakaha atra.
Kridakaha tadrisham. अस्तु अम्ब भ्रमति कथं भवति भ्रमति आडियो समस्या वा अस्तु जयश्री भगिनि भ्रमति
भ्रमितवान्
भ्रमितवान् सन्देहः अस्ति चेत् तत्र पश्यामः भ्रमति
Mm-hmm.
शुभ्रं कृतं च भ्रान्तवान् भ्रमणं
भ्रान्तवान्
अन्यत् एकं पश्यामि एकं भ्रान्तवान् सम्यक् वा न जानामि भ्रमति वा केव एतदेव सम्यक् इति चिन्तयामि अत्रापि तथा एव भ्रान्तवान्
भ्रान्तवान् भ्रान्तवान्तौ भ्रान्तवान्तः
अस्तु शृणोति अग्रे लता भगिनी अस्तु अम्ब
इदानीं
इतोके भगिनी मम अम्ब इदानीम् आगतवती शृणोति अम्ब वदतु श्रुतवान् श्रुतवन्तौ श्रुतवन्तः श्रुतवान् सो अत्र भिन्नरूपं श्रुतवान् सम्यक्
भगिनी कृपया लिखतु
भगिनि अत्रापि भवति श्रोता इति
कृतवान् अग्रे जयश्री भगिनी जयश्री अभवत् लता भगिनी लता भगिनि
भगिनी एकः प्रश्नः श्रु इत्युक्ते उकार आगच्छति किल श्रु
अत्र धातु अस्ति श्रु
श्रुतवान् अपि उकार आगच्छति खलु
I wrote it wrong, Bhagini. Thank you, yeah. Shrutavane.
But in the Bhagini, can you hear me?
Yeah, yeah, I'm Bhagini, yeah.
But that Shru... it is
written,
Shru Dhatu is written as a
Rikara,
right?
No Ukaram there. Yeah, but this is Shrutavan, Shru. You see it? This is how it is.
Ukaram there.
Yeah.
But Dhatu itself is written as a Rikara.
Dhatu is also Shru Eva.
Oh, okay. But in the book, it is written there.
Shru.
Yeah.
Yeah, so that is another way. So it is a different font, Bhagini.
But it is supposed to be
read as a Ukaram? No, see, I will show you. I don't know if you can see my whiteboard. You can see?
Yeah.
Okay. So, Atra, if I write Shru, I have one font, I'll make it big, Ekanimesham. This is Mangal. And the other one is...
The font
will make it change like that.
Is this Mangal in Sanskrit? Did you download it or it came with the...
No, Varaha pad. I had to download. Okay. Varaha. अस्तु अग्रे लता भगिनी अभवत् वा न तपति तप्तवान् तप्तवन्तौ तप्तवन्तः सम्यक् सागरी भगिनी बोधयति
बोधितवान्
अत्र यति इति अस्ति चेत् अपि या अत्र न आगच्छति बोधयितवान् इति न भवति बोधितवान् एव अस्तु सविता भगिनि
आं भगिनि लिखति लिखितवान् लिखितवन्तौ लिखितवन्तः
लिखितवन्तः एतत् सर्वं सुलभः एव उषा भगिनी अन्तिम अत्र मास्तु यु कम् बेक् यु कम् डौन् टु ब्रूते भगिनि ब्रूते आत्मनेपदि दातु
उक्तवन्तः
साधारणतया वयं वदति इति अस्ति चेत् एव उक्तवान् उक्तवन्तौ उक्तवन्तः इति पठितवन्तः खलु इदानीं ब्रूते एव उक्तवान् उक्तवन्तौ उक्तवन्तः वदति अपि तथा एव भवति परन्तु वदति इति अस्ति चेत् उदितवान् अपि सम्यक् एव उदितवान् अपि सम्यक् उक्तवान् अपि सम्यक् उदितवन्तः सो इफ् यु सी उदितवान् इट् इस् ओके उदितवान् इति अस्ति चेत् अपि सम्यक् एव
भगिनि दिस् इस् करेक्ट् फोर् बोत् ब्रूते एण्ड् वदति
करेक्ट् नो नो उदितवान् विषये ओन्ली फार् वदति
ओ अस्तु धन्यवादः
उक्तवान् गोस् वित् वदति एस् वेल् एस् ब्रूते
अवगतं भगिनि
अस्तु
ब्रूते इति वदति वा साधारणतया
आम् आम्
ब्रूते
ब्रूते
आत्मनेपदि
सो अत्र किम् अस्ति इत्युक्ते आत्मनेपदि धातु अस्ति चेत् अपि समानरूपाणि एव भिन्नरूपं न ईक्षते ईक्षितवान् ईक्षितवन्तौ ईक्षितवन्तः लभते लब्धवान् लब्धवन्तौ लब्धवन्तः आस्ते आस्ते इत्युक्ते टु उपविशति इति सेट् आस्थानम् आसन्दः इतः एव आगच्छति उपविशति इति अर्थे अस्ति समानार्थकपदम्
ईक्षते इति इच्छति वा भगिनि इच्छति
ईक्षते इति पश्यति
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 दृष्टवन्तः
ईक्षितवान् ईक्षितवन्तौ ईक्षितवन्तः लभते इति प्राप्नोति और् आप् आप्नोति अपि समानम्
ikshate and drishya are the same.
Same.
But when you put iksh dhatu, pashyati, and you put drish dhatu also, you'll get pashyati?
No.
Drishya.
Dhinna rupam, parantu artham samana. Artha samana. Atra pashyati. Ikshate. Ikshate to see. Okay, to see iti likami. Adhikam asti.
Ikshate there again.
Yeah, asti.
Drish, there it is, drish.
Ikshasti, drish api asti. Asti. Samana arthakapada. Asti. युध्यते युद्धं कर्तुं युद्धं करोति युध्यते युद्धवान् युद्धवन्तौ युद्धवन्तः सो अग्रे समानमेव यत् वयं न कृतवन्तः लिखितवान् लिखितवन्तौ हचितवान् हचितवन्तौ नतवान् सो अत्र नम् धातु नतवान् अत्र मकारः न नमकारः ददाति दत्तवान् द्वित्तं भवति दत्तवान् पृच्छति पृष्टवान् किञ्चित् भिन्नरूपाणि भवन्ति एकवारं पश्यन्तु तत्र इदानीं स्त्रीलिङ्गे तावत् प्रत्ययान्तरूपं स्त्रीलिङ्गे कथं भवति पिबति अत्रापि धातु अस्ति पी धातु पीतवान् सो अत्र पश्यतु वदति उदितवती उदितवती एव उचितं पदम् उचितं रूपम् उदितवती परन्तु उक्तवती अपि समान इमे एक्सेप्टेड् उदितवती उदितवत्यौ अत्र वत्यौ भवति वत्यौ वत्यः पश्यति वदतु भगिनि
क्षम्यतां भगिनि पिबति इति पा वा
किं
धातुः पिबति पा धातुः
पा एव क्षम्यतां पा धातु
उदितवती मीन्स् देन् उदितवान् आल्सो फार् पुल्लिङ्ग् आल्सो उदितम् इस् ऐडियल् वर्ड् फार् टाकिङ्ग्
वदति The rupam for vadati is uditavati. Uditavati or uditavan. So, and pibati. Pa dhatu ev. Pa. Dhanyavada bhagini. Yeah. Pa
dhatu.
Pitavan, pitavati. Pitavan, pitavati iti bhavati. Astu.
Pashyati is pa. Pashyati, what could it be?
Drish.
Pasit.
Drish. Uh-huh. Drishdat.
Drishtavati.
Pashyati drishdat. Drishdat. Gacchati. Gamdat.
Gamagacchati.
So it will become Gatavan Gatavati. Gatavan Gatavati. Evam Bhavati. Chipati. Chiptavan. Japati. Japitavan. See? It's not the same. Japtavan na Bhavati. Japitavan. Katam Jani Maha. Na Jani Maha. Okay? Only by practice.
Only by practice.
I wish there was sometimes rule asti, sometimes na. Atra pa dhatu parantu pitava. Kr dhatu kritavan. Samyak. Atra dhatu asti kritavan. Vad dhatu uditavan. Gam dhatu gamitavan na. Gatavan gatavati. Pashyati drishdatu drishtavan. Tat samyak asti. Kshipati क्षिप्तवान् परन्तु जपति जप्तवान् न जपितवान् किमर्थम् बिकास् आफ् द धातु गण बट् इट्स् ओके बट् फार् नौ वि विल् जस्ट् रीड् इट् अगेन् अण्ड् अगेन् अण्ड् गेट् इट् ओह् क्षम्यतां वाट् मे डु अस्तु अस्तु नयति धातु किं
भगिनि सो अकार्डिङ्ग् टु द गण it will become japitavati not japtavati ah. If it belong to another gana then it would go like gatavati right
we will try that scary bit okay so let's look at chipati okay we will try that theory chipati Kripati belongs to Udadi Gana. Okay. Udadi Gana. Let's look at Japati. Japati belongs to Bhuadi Gana. Bhuadi Ganas are all like straightforward. Japitavan, like that. Udadi Gana are all different. Japitavan. So it depends on the gana.
Bhagini, pat becomes patitavan, right? Like that, that's why probably japati becomes japitavati. Correct. Because of the gana.
Yeah.
Astu, Bhagini. Thank you.
Okay, astu. Nayati neetavan neetavantav. Okay. Nayati is needhatu. Tishtati is actually Sthadhatu. Sthadhatu. Kujati, Kujitavati. Prichati.
So is that also Vuadigana? Because becoming Kuji.
Kujitavati.
Japi, like that.
अनुमानं कर्तुं शक्नुमः तादृशं कूजितवती लैक् दट् पृच्छ धातु पृच्छति परन्तु पृष्टवान् एवं भवति पृष्टवान् कथयति कथितवान् शृणोति श्रुतवत्यः हसति हसितवती हसित सो दीस् आर् आल् स्ट्रेट् फार्वर्ड् सो नौ वि कम् फार् आत्मनेपदि धातु गायति गै धातु अत्र गै एवं भवति शेते शयनं करोति शेते शयितवती जानीते इस् अ उभयपदि धातु खलु जानाति अपि अस्ति जानीते अपि अस्ति सो दिस् इस् अ उभयपदि धातु
भगिनी गायति वुड् बि गीतवती इस् इट्
गीतवती आम्
धन्यवादः
गै धातु परन्तु गीतवती एवं भवति यतते प्रयत्नं करोति यतते yatta so it is yatta so this is the stem jani mahache samyak bhavati yatta iti labate labdha shayita
double ta there yatta or is it just yata
no yatta
double ta
yatate yatta evam bhavati okay so punah पठन्तु अनन्तरम् अभ्याससमये सो अत्र धातुः अस्ति ईक्ष् धातु युद्धातु आगम् दा एवं भवति गम् धातु
यतते कथं भवति भगिनि
यत्तवती
धातुः जानीते
न्या न्या धातु यत्तवती यत्तवत्यौ यत्तवत्यः एव
यत्तवती इत्युक्ते प्रयत्नं करोति इति वा
प्रयत्नं कृतवती अस्तु समयः अभवत् इदानीं समापयामः अग्रे वयम् अभ्यासं प्रति गच्छामः ॐ सर्वे भवन्तु
सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ शान्ति शान्ति शान्तिः हरिः ॐ श्रीगुरुभ्यो नमः हरिः ॐ
धन्यवादः भगिनी
धन्यवादः भगिनी